श्रीचित्रापुरवासिनी वरभवानी शङ्करत्वप्रदा ओतप्रोथ शिवान्वितां गुरुमयीं गाम्भीर्यसन्तोषधा हृत्कुयां पुरकल्पितं गुरुमतं श्रोताय ते तां सुधा श्रीवल्लीं भुवनेश्वरीं शिवमयीं ऐश्वर्य शिवमयीं ऐश्वर्यदान्तां भजे चिन्मुद्राङ्कितदक्षिणास्य निहितां श्रीभाष्यकारश्रियं तां हस्तामलकप्रबोधनकरीं क्षेत्रे स्थितां शिवमयीं ऐश्वर्यदान्तां भजे श्रीवल्लीं भुवनेश्वरीं शिवमयीं ऐश्वर्यदान्तां भजे श्रीविद्योदितकौमुदीरसभरां शिवमयीं ऐश्वर्यदान्तां भजे श्रीवल्लीं भुवनेश्वरीं शिवमयीं ऐश्वर्यदान्तां भजे तन्वीं रक्तनवाकवर्णसदृशीं खण्डेन्दु सम्मण्डि ऐश्वर्यदान्तां भजे श्रीवल्लीं भुवनेश्वरीं शिवमयीं ऐश्वर्यदान्तां भजे श्रीमच्छङ्करसद्गुरुर्गणपतिर्वातात्मज क्षेत्रपः प्रासादे विलसन्ति भूरि सदये नित्यस्थिते हि मयि युष्मत्स्नेहकटाक्षसौम्यकिरणा रक्षन्ति दोग्ध्रीकुलं श्रीवल्लीं भुवनेश्वरीं शिवमयीं ऐश्वर्य शिवमयीं ऐश्वर्यदान्तां भजे गोत्रीं वत्ससुरक्षिणीं मठगृहे भक्तप्रजाकर्षिणीं यात्रा हरीं शिवमयीं ऐश्वर्य ऐश्वर्यदान्तां भजे श्री सारस्वत गेयपेय जननीं ज्ञानादि विद्या प्रदां लोके भक्त सुगुप्ति तारण ऐश्वर्यदान्तां भजे क्षुद्रा मे भुवनेश्वरि स्तुतिकथा किं वा मुखे ते स्मितं यासि त्वं शमिका नान्या गतिर्हि मयि नान्या मे भुवनेश्वरि प्रशमिका नान्या गतिर्हि मयि नान्या मे भुवनेश्वरि प्रशमिका नान्या